अथ राजयोग नाम नवमध्यायः श्रीभगवान् वाच ईदं तु ते गुह्यतमं प्रवक्ष्याम्यान सूयवे ज्ञानं विज्ञानसहितं यज्ञत्वा मोक्षसे शुभात् राजविद्या राजगुह्यं पवित्रम् इदमुत्तमम्।